गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय सर्वेभ्यः राम राम राम। गुरुं गणपतिं मातापितरं सर्वान् नत्वा अद्यतनकक्षां प्रारम्भं कुर्मः। गतकक्ष्यासु अस्माभिः तत्र प्रति अध्याय समाप्तौ यद् वाक्यम् उच्यते ओम् तत्सदिति इति शब्दैः यद् वाक्यम् उच्यते तद्वाक्यस्य प्रामाण्यं तद्वाक्यस्य प्रामुख्यं च अस्माभिः दृष्टमस्ति। तत्र प्रथमं तावत् ओम् तत् सत् इति चत्वारि पदानि यानि सन्ति तत्र तेषां महत्त्वम् अस्माभिः दृष्टमस्ति। ओम् इति पदं सर्वपापनाशकारी भवति। मध्ये सम्भावित यद्यत् उच्चारणदोषाः सन्ति तत्र यदक्षरपदपृष्टं मात्राहीनान् तु यद्भवेत् तत्सर्वं क्षम्यतां देव इति यत् अस्माभिः उच्यते तत् ओम् इति शब्देन तत्र उच्चारणदोषाः निवार्यन्ते। तत् इति शब्देन परमात्म उन्मुखम् अस्माकं मनः प्रवर्तते अपि च सत् इति शब्देन तत्र अध्याय पठनेन यत् फलम् उक्तमस्ति तत् फलप्राप्तिः सत् शब्देन प्राप्तिर्भवति इति अपि उक्तमस्ति। इति शब्दस्य प्रयोगेण ओम् तत् सत् इति तत्र इति शब्दप्रयोगेन एतदेव अस्माकम् अपेक्षा परब्रह्मसाधना एव अस्माकम् अपेक्षा अन्यदपेक्षा नास्ति इत्येव इति शब्दस्य प्रयोजनम् इति अस्माभिः दृष्टमस्ति। श्रीमत् इति शब्दस्य अर्थं तावत् श्रीयुतं यत् श्रीमद्भगवद्गीता यदस्ति तत् मङ्गलकरं श्रीयुतं शिवं कल्याणं मङ्गलं शिवं रूपेण वर्तते इत्यस्य श्रीमत् इति शब्दस्य प्रयोगः। भगवत् शब्दस्य प्रयोगः दृष्टमस्ति अष्टैश्वर्यं वा षडैश्वर्यसम्पन्नः भगवान् यस्य भग इति षडैश्वर्यस्य वा अष्टैश्वर्यस्य नाम भवति तदेव भग इति शब्देन स्वीकृतमस्ति। भगवान् इति शब्देन भगः अस्य अस्ति इति भगवान् मतु प्रत्य उपयोगेन भगवान् शब्दः निष्पन्नः। एवं यस्य षट् गुणाः सन्ति षड्गुणाः यस्य पुरुषस्य सन्ति स एव भगवान् इति अस्माभिः व्यवह्रियते तदपि अस्माभिः दृष्टमस्ति। तत्र ओम् तत् सत् एतस्यापि विस्तारः सप्तदश अध्याये श्लोकाः तत्र त्रयोविंशतिश्लोकादारभ्य सप्तविंशतिश्लोकपर्यन्तम् ओम् तत् सत् अस्य व्याख्यानं दत्तमस्ति तत् सप्तदश अध्याय अध्ययन समये वयं पश्यामः तदपि केवलं रेफरेन्स् कृते अस्माभिः अत्र दत्तमस्ति। इदानीं तत्र स्लैड् पञ्चमध्ये अस्मि अहं तत्र पश्यामि चेत् गीतासु इति ओम् तत्सत् इति श्रीमत् भगवत् गीतासु इति एवम् उपनिषत्सारम् अयम् उपनिषत्सारमेव श्रीमद्भगवद्गीता एवं गीता इति शब्दस्य प्रयोगम् अस्ति, अस्माभिः पूर्वमेव दृष्टमस्ति. उपनिषत्सु एवम् उपनिषत् सारः एव. अपि च या स्वयं पद्मनाभस्य मुखपद्मात् विनिस्तृता, यस्य निःश्वसितं वेदाः एवं वेदाः अपि भगवतः निःश्वसितमेव, यस्य निःश्वसितं तस्य पद्मनाभस्य मुखपद्मादेव भगवद्गीता अपि निःसृता, एवं सा अपि गीता सा गीता अपि उपनिषत् सारत्वेन परिकल्प्यते अत्र. अपि च ब्रह्मविद्यायाम् इति अस्ति, या विद्या ब्रह्मसाक्षात्कारे साहाय्यिका भवति सा एव ब्रह्मविद्या. एवं ब्रह्मविद्यायां योगशास्त्रे तत्र योगपदस्य निष्पत्तिः अस्माभिः दृष्टमस्ति, योगपदस्य अर्थत्रयम् अस्माभिः दृष्टमस्ति. स्लैड् 6 मध्ये अस्माभिः दृष्टमस्ति, प्रथमतया संयोग इत्यर्थे योगशब्दस्य उपयोगः क्रियते. संयोगः तत्र युजिर् योगे इति धातोः निष्पन्नः योगः. संयोग इति तत्र जीवात्मपरमात्मयोः शाश्वतसंयोगः एव योगशब्दत्वेन परिकल्प्यते, तत् प्रथमार्थः. अपि च युज् समाधौ इति निष्पत्तिः स्वीक्रियते चेत् तत्र योगशब्दः समाधि अवस्थां, तत्र चित्तसमाधि यदस्ति तत् द्योतयति. अपि च युज् संयमने तत्र संयमं शम दम इत्यादि गुणैः संयम इति अर्थे स्वीक्रियते चेत् योगः संयम इति अर्थे स्वीक्रियते. एवम् अस्माभिः दृष्टमस्ति योगशास्त्रं. तत्र प्रथमतया शास्त्रं गीता तावत् शास्त्रमिति अस्माभिः प्रथमकक्षायामेव दृष्टमस्ति. गीता आल्सो फाल्स् अण्डर् द डेफिनेशन् आफ् शास्त्रास्. एवं वाट् एवर् इस् द ऑब्जेक्टिव् आफ् शास्त्रास् विच् इस् टु रियलैज् द परब्रह्मन्, द सेम् ऑब्जेक्टिव् इस् आल्सो रीच् बै स्टडियिङ्ग् आफ् गीता. एवं गीताध्ययनमपि शास्त्राध्ययनस्य प्रयोजनं यदस्ति, व्याकरणशास्त्रं वा न्यायशास्त्रं वा मीमांसाशास्त्रं वा तर्कशास्त्रं वा यद्यद् शास्त्रमस्ति, शास्त्रस्य प्रयोजनं तावत् ब्रह्मसाक्षात्कारः एव. व्याकरण द वैयाकरणस् दे यूस् शब्दस्फोटन्याय एण्ड् दे गो थ्रू दे अचीव् द ब्रह्मन् थ्रू द शब्द नालेज् आफ् द शब्द. Similarly, other shastras also, they take their own root and try to achieve the Parabrahman through their root. Here also, Yoga Shastra, this is Gita, Srimad Bhagavad Gita, is a Yoga Shastra. Even we saw the three different connotations of the word Yoga and how all these are being used to refer to each of the Yoga, like Karma Yoga, Bhakti Yoga, Jnana Yoga, Sankhya Yoga, all these Yogas which are there, it's a combination of all the Yogas. तादृशशास्त्रः शास्त्रमेव योग गीताशास्त्रं योगशास्त्रं भवति. तस्मिन् योगशास्त्रे कृष्णार्जुनसंवादे तत्र संवादरूपेण अस्ति श्रीमद्भगवद्गीता. अगेन् देर् आर् टु त्री स्कूल्स् आफ् थाट् इन् दिस्. वन् स्कूल् आफ् थाट् रेफर्स् सेस् दट् श्रीमद्भगवद्गीता वास् वेन् वी से संवादः, संवाद वाक्यरूपेण आसीत् इति केचन जनाः वदन्ति. Some people say that it was spoken in the form of sentences. However, Sri Vedavyasa converted it into shlokas and saha rachana shloka rupena Srimad Bhagavad Gita yaha rachanam kritavan iti kechana janaha vadanti. But then commentators like Sridhari Vyakhyane Pashyamaschete, Sridhara Swami, who also commented on Vishnu Purana and Srimad Bhagavatam, he has also written a commentary on Srimad Bhagavad Gita. And there he says, he gives the logic that the shloka which are there have been originally told by Sri Krishna himself. And because he also takes the cue from the sentence, Ya Swayam Padmanabhasya Mukha Padmat Vinistrata. Evam, these shlokas came from the mouth of Sri Krishna himself. And which is why it is more divine and more powerful. Is the Vyakhyana given by Sridhariya Vyakhyana and other commentators. However, the third set of school of thought, they say that whatever it is, either told by Krishna in sentence or written by Vedavyasa or told by Krishna in sloka form itself, when we know that even Vedavyasa is the form of Vishnu himself, Achaturvadano Brahma Vibhavur Aparoharihi Aphala Lochana Shambhu Bhagavan Badarayanaha. బాదరాయణః అపి విష్ణోః అవతారః ఏవ. వెన్ బోత్ ఆఫ్ దెమ్ ఆర్ సేమ్, ఇట్ డస్ నాట్ మేక్ ఎ డిఫరెన్స్ అట్ ఆల్. సో లెట్ అస్ నాట్ గెట్ ఇన్ టు దట్. ఇట్ సెల్ఫ్ ఇస్ సమ్ ఆఫ్ ద ఇస్ ద థర్డ్ స్కూల్ ఆఫ్ థాట్. ఏవం కృష్ణార్జున సంవాదే, వెన్ వి సే ఇట్ ఇస్ దో ద సంవాద కెన్ బి ఇన్ ద ఫార్మ్ ఆఫ్ సెంటెన్సెస్ ఆర్ శ్లోకాస్, హౌవర్ ఇట్ హాస్ ఎమినేటెడ్ ఫ్రమ్ ద సేమ్ సోర్స్ విచ్ ఇస్ ఫ్రమ్ ద వాసుదేవ పరబ్రహ్మ స్వరూప వాసుదేవస్య ముఖ పద్మాదేవ పద్మనాభస్య ముఖ పద్మాదేవ వినిసృత ఏష శ్రీమద్ భగవద్గీత. అర్జున విషాద యోగ. అట్ దిస్ టైమ్ వి హ్యాడ్ అ ఫ్యూ ఆఫ్ అస్ ఆస్కింగ్ క్వశ్చన్స్. అర్జున విషాద యోగ. సో హౌ డస్ విషాద దుఃఖ బికమ్ యోగ వాజ్ వన్ ఆఫ్ ద క్వశ్చన్స్ విచ్ వాస్ బీయింగ్ ఆస్క్డ్ కాన్స్టెంట్లీ. దట్ ఈస్ వెన్ వి రెఫర్ టు శ్రీమద్ భాగవతం. శ్రీమద్ భాగవతే పశ్యామశ్చేత్ చిత్రకేతు ఇది రాజా, శూరసేనస్య రాజా ఆసీత్. వి సీ ద స్టోరీ ఆఫ్ చిత్రకేతు. రాజా చిత్రకేతు వాజ్ అ గ్రేట్ డివోటీ ఆఫ్ ద లార్డ్ అండ్ సహ అతీవ సద్గుణ సంపన్న ఆసీత్. తదా యదా పశ్యామశ్చేత్ అట్ వన్ పాయింట్ ఆఫ్ టైమ్ హిస్ ప్రిసెప్టర్ దట్ ఇస్ హిస్ గురు కులగురు వాజ్ సేజ్ అంగిరస. అంగిరస మహర్షి వాజ్ హిస్ కులగురు. అండ్ వన్స్ అంగిరస కమ్స్ అలాంగ్ విత్ నారద టు బ్లెస్ హిమ్ విత్ ఆత్మజ్ఞాన. బట్ చిత్రకేతు టెల్స్ హిమ్ ఐ హ్యావ్ వన్ అన్ఫుల్ఫిల్డ్ విష్ విచ్ ఇస్ టు హ్యావ్ అ సన్ బికాస్ ఐ డోంట్ హ్యావ్ ఎనీ సన్స్ అండ్ డాటర్స్. ఐ వాంట్ టు హ్యావ్ అ సన్ హూ క్యాన్ క్యారీ ఆన్ మై కింగ్డమ్ అండ్ టేక్ ఇట్ ఫార్వర్డ్. అట్ దట్ టైమ్ నోయింగ్ హిస్ మైండ్ అంగిరస బ్లెసెస్ హిమ్ with a son and tells him that this son will be a cause of great joy and also will be a cause of sorrow for you, and he goes away. A son is born to Chitraketu has many wives, among them one of the wife is called Kritadyuti, and for Kritadyuti and Chitraketu the son is born. When the son is born, Chitraketu starts spending more time with Kritadyuti, and then the other wives who are very jealous, they give poison to the son and kill off the son. At that time, Chitraketu is filled with immense sorrow. Ati dukhena purito asti asya Chitraketoho manah. At that time, in this kind of sorrow time, both Angirasa and Narada again come to his rescue. And at that time, they ask him, why are you feeling so sorrowful, O king? Chitraketu tells, my son is no more. Says Angirasa, asks him, O Chitraketu, your son is here only. I can see him. He has two legs, two hands and two eyes. All these are here only. Chitraketu tells, but the prana, the atma is no more. At that time, Angirasa gives him the upadesha, saying that the atma upadesha he does, saying that this body is already there, it is there in front of you, but the atma which was never seen by you, and which is always eternal, is also always there. It does not have any perishable, it is not perishable. So realize the atman and forget this. At that time, Chitraketu realizes he realizes what is eternal and what is ashashvatam, because the sun can never become shashvatam and the atma can never become ashashvatam. Therefore realize that and you will always be happy is what sage Angirasa gives him the upadesha. Therefore in that story also we see that dukkha was the root cause for realizing the atmajnanam. ఏం తత్ర శ్రీమద్ భాగవత కథాయాం చిత్రకేతోః కథాయామపి వయం పశ్యామః తత్ర దుఃఖ కారణమేవ విషాద కారణం మూల కారణం ఆసీత్ ఆత్మజ్ఞాన ప్రాప్తయే. ఏం వెన్ దుఃఖ దోషానుదర్శనం, వెన్ దుఃఖ దోషానుదర్శనం హ్యాపన్స్ అండ్ దెన్ వి రియలైజ్ వాట్ ఈస్ ద రియల్ ట్రూత్, దట్ ఈస్ వెన్ ద అర్జున విషాద ఇట్ దట్ ఆల్సో బికమ్స్ అ యోగ. సో త్రూ దిస్ చిత్రకేతు స్టోరీ ఆల్సో వి సీ దట్ హౌ Vishada can also become a yoga. So Arjuna Vishada Yoga. Arjuna Vishada Yoga nama Prathamodhyaya. So that is where we saw this, the importance of, also we saw the story of Susharma to tell the importance of Srimad Bhagavad Gita's first chapter chanting. We saw the number of shlokas and words, letters in the first chapter, and chandas used this, Anushtup chandas has been used. In that various different variants of Anushtup Chandas has been used. So every shloka has 4 padas of 8 letters each, totaling to 32 letters. So these were the statistics, and from there we went to the first shloka of the second chapter, which wherein we saw the first chapter, first shloka. Let us just chant the first shloka once and then also see the important points in the first shloka of second chapter. We are in slide 8. We are in slide 8 of the presentation which has been sent. Sanjaya uvacha tam tatha kripaya vishtam ashrupurna kulekshanam vishidantamidam vakyam uvacha madhusudanah. So we saw that the prose order anvayartham tavata atiya saralamasti madhusudanah vakyam uvacha. Kam uvacha, kim uvacha. Two questions we asked, whom and what we asked, and we got the answer. Kam uvacha, Arjunam uvacha. Kidrisham Arjunam, Ashrupurna kulekshanam kripaya avishtam vishidantam Arjunam uvacha. Kim uvacha, idam vakyam uvacha. Idam vakyam kidrisham vakyam, agre uchyamana vacham yadasti tad vakyam uvacha. So we saw that this is this was the overall purport of the sentence. Madhusudanah tadrasharitya kripaya avishtam ashrupurna kulekshanam vishidantam Arjunam prati etad vakyam sah uvacha sah avadat. Madhusudanah Shri Krishna uvacha avadat. So we saw the anvayartha, we saw the artha and the vyakrana bhaga also. Going to slide number 11, where we have the vishesha tippani, visheshamshaha yadasti tat pashyamaha idanim. So we just stopped this at this juncture. Tat idanim visheshamshan pashyamaha. Tatra in the first sentence, in most of the epics, when we see the first vakya, generally the first vakya or the first loka tries to summarize the previous chapter in a very very crisp way. Evam yadi vayam pashyamaschete kripaya vishtam ashtupurna kulekshanam vishidantam. These three words summarize the entire first chapter state of Arjuna and give us what is going through in Arjuna's mind. Therefore these three words are nothing but used. Why are these three words used? They are used to just summarize the state of Arjuna and give us the summary of the first chapter. Evam tadartham kripaya vishtam ashrupurna kulekshanam vishidantam iti padatrayasya upayogah prathamadhyayasya apicha Arjuna manasah tatra yat avastha asti prathamadhyayasya saramshahed asti tadeva diyate padatrayena. Dvitiya visheshamsham pashyamaschet madhusudanah iti padasya upayogah asti. Natavat janardanah va natavat anya padasya upayogah kritamasti sanjayena. Sanjaya very intelligently uses this word madhusudanah. What does he say? Tatra madhu iti asurasya hanta yaha saha madhusudanah. Yaha madhu ityakhya asurasya asuram sudayati saha madhusudanah. Evameva duryodhanadayah api madhu iti asura samanaha eva yete api. Duryodhana and others are also very similar to the asura madhu, who caused a lot of trouble to all the good people. Evam the Krishna's avatara karya itself is dushta shikshanam and shishta paripalanam. Evam if your sons Dhritarashtra, hey Dhritarashtra, if your sons Duryodhana are going the way of like the way of madhu, the asura madhu, they will also be finally killed either directly or indirectly by Shri Krishna, because that is his avatara karya itself. Therefore he is going to do that. Even now, O Dhritarashtra, please wake up, and if you want to do any sandhi with them, if you want to do any compromise, please you can now, at least now you can think of this. That is the Bhashyakara's commentary for the usage of the word Madhusudana. Apicha yadi vayam pashyamaschet tritiyamsham visheshamsham pashyamaschet ashrupurna kulekshanam bashpaparya kulekshanah asti arjunah bashpapuritah asti arjunah arjunasya netre. Evam you see his eyes are filled with tears. When our eyes are filled with the tears, we can never see clearly. So that what is not, he is not able to see clearly. When you are not able to see clearly, Bhashyakara say that he is not even able to think what is right and what is wrong. He is not able to see what is right, what is wrong. Tad darshayitumeva ashupurna kulekshanam iti padasya upayogah kritah iti bhashyakarahi ativa tatra samaranjasa ritya dattamasti. Interestingly, one of the bhashyakaras has given this connotation to the word ashupurna kulekshanam. Also we see that the word vakyam was actually not necessary to finish the anvaya. If you see, idam uvacha itself would have been sufficient, but the word vakyam has been used. So if you ask the question why vakyam has been used, then we get to know that tad vakyameva Srimad Bhagavad-gita tvena parinamate. These are the words which are going to directly attack the weakness and sorrow in the minds of Arjuna. Who is Arjuna? We are all Arjunas. All of us have confusions, delusions, wrong notions in our heart, and we become weak and we become sorrow in our life due to various reasons. At that time, this vakyam, the vakyam of Shri Krishna Paramatma, the Sarvavyapi Vasudeva, whatever is there, those vakyam will always try to wake us up from that slumber and remove us from those sorrow and weakness. Tadrasha, that power is there to these vakyam. Therefore, Arjuna and Arjuna similar people, please realize idam vakyam uvacha. So concentrate on what is being told from now onwards, so that they will also remove the weakness and sorrow in your minds. Yevameva, the profoundness and the rarity of the words and of the vakyam and the power of that vakyam is being told through this word vakyam. Yevameva pratama shlokasya visheshamshaha. Idanim tatra, let us go to shloka number 2. I am in slide number 12. Tatra dvitiya shlokam pashyamaha. Ekavaram vadami sarve anuvadantu. Shri Bhagavanuvacha Kutastva Kashmalamidam Vishame Samupasthitam Anarya Jushtamasvargyam Akirtikaram Arjuna. Evamasti dvitiya shlokah padachedam pashyantu ekavaram kartrikarma kriyan veshanam kurvantu adya tatra type kartum navashyakam vaktum shakyate. You can unmute yourself and also tell what is the kartrikarma kriya. Padachedam api ekavaram prayatnam kurvantu ativa saralamasti. Samupastitam asti. Asti, very good. Asti is the kriyapadam. Correct. Okay. Kim samupastitam asti? Kashmalam idam. Tavadeva. Idam kashmalam, we can take it as kartrupadam. Samupastitam asti kriyapadam. Very simple. Evam idani padachedaha pashyamaha. Shri Bhagavan uvacha kutaha tva kashmalam idam vishame samupastitam anarya jushtam asvargyam akirtikaram Arjuna. Okay. Fine, we are in the second shloka of the second chapter, which has around 72 shlokas. So that is the index reference. Anvayartham pashyamaschete saralamasti. Hey Arjuna, vishame asmin sankata kale vishame anarya jushtam asvargyam akirtikaram idam kashmalam. Kashmalam is the, if you take as the kartrupadam, all the other four are the visheshanam. Evam. Therefore, they are connected words, same linga vibhakti vachana. We know the rules. Anarya jushtam, asvargyam, akirtikaram, idam. Four words to describe kashmalam. Kashmalam, kutaha. Kutaha, kasmat karnat, kutra. From where? Kutra taha we can't use. Evam kutaha. We cannot parallelly use both tra and tashil. Therefore, originally it will be from where if we have to take kutra taha iti bhavitavyam, but then since both tra and tashil cannot be used together, the word finally becomes kutaha. Kutaha etavat tatra kashmalam yadasti, this vishada kashmalam with whatever is there, kutaha, from where etat samupastitam has come. Kutaha samupastitam asti is what he is asking. So by the first shloka, which Shri Bhagavan is telling in the second chapter, Saha Prichati, Hey Arjuna, Asmin Vishame, Vipatti Kale, Sankata Kale, Asmin Yudhe, Madhye, Yat Yudhe Vayam Asmaha, Tad Yudhe, Anarya Jushtam, Asvargyam, Akirtikaram, Idam, Kashmalam, Yadasti, Vishadaha Yadasti, Tat Kutaha, Kasmat Karanat, Kasmat Pradeshat, कीदृश कीदृश कारणात् त्वा त्वां त्वयि समुपस्थितं समागतम् आगतमस्ति इति सः पृच्छति. एवं पश्यामश्चेत् अर्जुन हे पार्थ हे कौन्तेय विषमे विपत्तिकाले सङ्कटकाले युद्धकाले अनार्यजुष्टम् आर्यः इत्युक्ते श्रेष्ठपुरुषः यत् यः आत्मगुणैः सम्पन्नः सः आर्यः इति स्वीकर्तुं शक्यते. अनार्यः यः आर्यगुणैः न पूरितः सः अनार्यः असाधुः इति स्वीकर्तुं शक्यते. अनार्यजुष्टम् असाधुसेवितं यदस्ति यत् अनात्म जनैः अनात्मज्ञानसम्पन्नैः जनैः सेवितम् एतादृशं चित्तकालुष्यं कष्मलम् अनार्यजुष्टम्. अस्वर्ग्यं तत् यत् स्वर्ग अयोग्यं यत् स्वर्गं प्रति अस्मान् न नेष्यति तादृश कष्मलं तादृश विषादः. अपि च अस्वर्ग्यं स्वर्ग अयोग्यं स्वर्ग वैरुध्यं यत्र अस्ति तादृश कष्मलम्. अपि च अधर्म्यं यत् तत्र श्रीधरस्वामिभिः दत्तमस्ति अधर्म्यम् इति दत्तमस्ति. अस्वर्ग्यम् इति पदस्य अधर्म्यम् इति अपि दत्तमस्ति विच् इस् अगेन्स्ट् द धर्म अगेन्स्ट् द धर्म. वाट् इस् द धर्म विच् इस् बीङ्ग् रेफर्ड् टु धर्माति युद्धात् श्रेयोन्यत् क्षत्रियस्य न विद्यते. लेटर् आन् इफ् यू सी इन् श्लोका 31 कृष्णा टाक्स् अबौट् दट् वाट् इस् द धर्म आफ् ए क्षत्रिय यत् तत्र दुष्टशिक्षणं शिष्टपरिपालनं यदस्ति दट् इस् द धर्म. एवम् अस्वर्ग्यम् अधर्म्यं तादृशविषादः कुतः आगतम् इति स्वीकर्तुं शक्यते. द वर्ड् अस्वर्ग्यं हेस् दीस् कनोटेशन्स्. अकीर्तिकरम् अयशस्करम्. टुडे Arjuna may go away from the war saying that saha dukkhena abipuritaha saha vishadena puritaha. He is filled with vishada, dukkha and deep compassion. But tomorrow, what will people always think? Nobody will think Arjuna went away from the battlefield because of that. People will only talk about those people who are waiting to talk badly about Arjuna. Durbuddhayaha. ये दुर्बुद्धयः सन्ति दुर्योधनपराः ये सन्ति ते सर्वे सर्वदा वदन्ति अर्जुनः युद्धात् पलायितवान्. ही रान् अवे फ्रम् द बेटल् फील्ड् बिकास् आफ् फियर् दट् विल् ओन्ली स्टे फैनलि. एवम् अकीर्तिकरमेव भविष्यति एतत् दट् इस् वाट् पीपल् विल् स्टार्ट् टाकिङ्ग्. एवं दिस् एटिट्यूड् आफ् युर्स् इट् इस् ओन्ली अयशस्करम् अकीर्तिकरं भवति इति इदं दिस् कष्मलं चित्तकालुष्यं यदस्ति मनसि यत् कलुषं कलुषत्वं यदस्ति आल् द पोल्यूशन् विच् इस् बीङ्ग् कास्ड् इन् युर् मैण्ड् बिकास् आफ् दीस् राङ्ग् नोशन्स् तत् चित्तकालुष्यं कुतः फ्रम् वेर् कस्मात् कारणात् कस्मात् प्रदेशात् फ्रम् वेर् डिड् दीस् आल् दीस् कैण्ड् आफ् चित्तकालुष्यं समागतं समुपस्थितं समागतं कम् इस् वाट् कृष्णा इस् आस्किङ्ग् हिम्. सो पदपदार्थः पश्यामः. हे अर्जुन ओ अर्जुन विपत्तिकाले अस्मिन् युद्धे इन् दिस् क्रैसिस् वेर् इन् वि आर् इन् द सेण्टर् आफ् द बेटल् फील्ड् इन् दिस् कैण्ड् आफ् अ सिचुवेशन् वेन् यु हेव् टु बि वेरि वेरि पवर्फुल् अण्ड् यु हेव् टु फैट् वित् देम् इन् दिस् कैण्ड् आफ् अ क्रैसिस् सिचुवेशन् अनार्यजुष्टं विच् इस् अन्वर्ति आफ् अ रैटियस् मेन् अस्वर्ग्यं विच् इस् अगेन्स्ट् अटैन्मेण्ट् आफ् स्वर्ग वीरस्वर्ग फैनलि इवन् इफ् यु डै इन् द बेटल् फील्ड् युल् गेट् स्वर्ग इफ् यु आर् विक्टोरियस् इन् द बेटल् फील्ड् यु हेव् एस्टाब्लिश्ड् युर् क्षत्रिय धर्म. Therefore, any of these will only take you to Swarga or good only. But whatever currently you are having this Vishada is purely Aswargyam. Akirtikaram, which is disgraceful, which is going to give you ill fame. Tadrasha, idam, this Kashmalam, dejection, illusion, the delusion what is caused in your mind. Kutaha, from where, whence, Tvam, upon you, Samupasthitam has come. Padaparichayam, hey Arjuna, Pullinga Prathama, Sambodhana Prathama Vakti Ekavachanam. विषमे सप्तमी एकवचनं पुल्लिङ्ग अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कष्मलम् आल् आर् नपुंसकलिङ्ग प्रथमाविभक्ति एकवचनं कुतः अव्ययं फ्रम् वेर् अव्ययं त्वा त्वां त्वा द्वितीयाविभक्ति एकवचनं युष्मच्छब्दः त्रिलिङ्गकः दकारान्तः सर्वनाम शब्दः त्वां त्वा देर्फोर् द्वितीयाविभक्ति एकवचनं समुपस्थितम् अगेन् समुपस्थितं कृदन्तभागे पश्यामः नपुंसकलिङ्ग प्रथमाविभक्ति एकवचनम्. गोयिङ्ग् टु स्लैड् नम्बर् 14. हे अर्जुन अर्थं पश्यामः. हे अर्जुन विषमे अस्मिन् सङ्कटकाले अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कष्मलं कुत्र कथं समुपस्थितं कथं त्वयि समागतम् कथम् त्वाम् समुपस्थितम् त्वाम् प्राप्तम् अस्ति इति सः पृच्छति. सन्धिभाग सिंपल संधि कुतः त्वा विसर्ग सकारादेश समासः अनार्यजुष्टम् आर्यैः जुष्टम् आर्यजुष्टम् तृतीया तत्पुरुष वाट् विल् बी फालोड् बै आर्यास् एवं बै आर्यास् तृतीया विभक्ति आर्यैः जुष्टम् स्वीकृतम् तैः अनुसृतम् यत् मार्गः वर्तते आर्यैः जुष्टम् उपभोक्त जुष्टम् केन् आल्सो बी स्वीकृतम् विच् हेस् बीन् followed, which has been practiced, which has been consumed also, that word is also can be used. Aryaihi jushtam yadasti tata arya jushtam, na arya jushtam anarya jushtam naitat purusha. Similarly, swargasya yogyam yadasti tata swargyam, na swargyam naitat purusha. Kirtim karoti iti kirtikaram, kirtim karayati iti kirtikaram, na kirtikaram akirtikaram naitat purusha samasas. कृदन्तभागे पश्यामश्चेत् समुपस्थितं सम उप उपसर्गद्वयपूर्वक स्थाधातोः स्थाधातोः तप्रत्ययोगेन समुपस्थितः समुपस्थिता समुपस्थितम् इति लिङ्गत्रये भवति. अत्र समुपस्थितं विष इदं कश्मलम् अस्ति एवं समुपस्थितम् इस् द रेफरेन्स्ड् वर्ड् कश्मलं नपुंसकलिङ्गे अस्ति. सो द नपुंसकलिङ्ग फार्म् आफ् दट् कृदन्त हेस् बीन् यूस्ड् समुपस्थितं. जुष्टम् अगेन् जुष धातोः तप्रत्ययः जुष्टं भवति इदं अनार्य जुष्टं कश्मलम् एवं जुष्टः जुष्टा जुष्टम् इति लिङ्गत्रयेषु भवति. तप्रत्यय भूतकृदन्तस्य तप्रत्ययोगेन बोत् दीस् आर् भूतकृदन्त फार्म्स्. तद्दितान्त अगेन् लैक् यु आर् सेयिङ्ग् कुतः किम् इफ् यु यूस् द किम् अण्ड् पुट् द तशिल् प्रत्यया देर् वि गेट् कस्मात् फ्रम् वेर् फ्रम् वेर् इफ् यु हव् टु यूस् that is when we use the kutaha we take that we give the meaning of kutaha from where aham grihatah agacchami. So from griha used in place of grihat instead of grihat we can use grihatah from the in that sense of panchami vibhaktirte tatra tashil pratyasya panchamyarthe tashil ityo bhavati panchamyarthe tashil pratyasya upyogah kartum shakyate. That is the word. We saw that how we cannot use kutratah, therefore we are using kutah. Agre pashyamaschet, we are in slide 15. Tatra vishesha tippanim pashyamaschet, kashmalam. Kashmalam. If you see, this kashmalam which is there, will not lead him to any of the purusharthas. Wherein, even if it was trying to lead him to either dharma, artha, kama or moksha, if this was this vishada and because of Arjuna not fighting and he going back, if it would have led him to any of the four, Krishna would not have stopped him at all. Again, when we see here, at any point of time in the Bhagavad Gita, Krishna never tells Arjuna to fight. He never tells him to go and kill them. But he tells him, whatever is your dharma, kshatriya dharma, you go and do. That is what he is telling. And he is not, Krishna is not asking a sannyasi or a grihastha or a brahmana to tell that go and fight. He is telling a kshatriya, do your dharma. Evam, tatra kashmalam, if we see, tatra it is not leading him to leading Arjuna to any of the purusharthas. Any of our activities should always lead to one of the four purusharthas. Otherwise, whatever we are trying to do is of no importance. Evam, pashyamaschet, that is why Arjuna is Krishna is telling him, kashmalam, this kashmalam will not lead you to any of the four purusharthas. Therefore, stop being like this. Then, when you see the usage of the word Arjuna, we see that Arjuna iti padasya, tatra shweta, va prakashaha, va bharata, again the same meaning of who is bright, shining, one who is very very pure in his mind, tadrsha artha eva bhavati, Arjuna iti padasya. When you are born of such a nice person and your mind is always pure, it is always clear. Pure means it is very clear. What is right, what is wrong, you are always clear in that. What is your dharma, you are always clear. And because of that clarity, your mind and brain is always very pure and it is white. But now, this pollution which is coming here, this kashmalam which is coming here, is now removing that. That word Arjuna itself is now being made wrong. Arjuna padasya upayogah eva kartum na shakyate etadrsha avasthayam iti sahadyotayati. therefore, Sri Bhagavan uses that word Arjuna specifically to remind him of what is the antasattva of Arjuna. Tat antasattvam saha dyotayati. Evam, O Arjuna, wake up. This is not what you are. This is a wrong notion. This is a temporary dejection which has befallen you. So remove that and become Arjuna again, is what he is trying to use the word Arjuna. Tadeva bhashyakarehi uktamasti. Now, why are three words used? Anaryadrushtam, Aswargyam, Akirtikaram. If we see that, again, interesting bhashya commentaries have been given. Anaryadrushtam. Ye tatra aryaha santi, ye atmajnana sampannaha santi. Their objective in life will always be moksha objective. Now, by going away from this world, are you going to get moksha? No, you are not going to get moksha. Therefore, you are not becoming an arya also. Therefore, this act is anaryajushtam. That is, he removes off that first thing. Now, are you going to get swarga by going away from this? No, you are not going to get swarga also. The second level of people who are there, they don't want moksha, they want swarga. At least heaven, we want to attain heaven. Because why? What is the difference between moksha and swarga? Kshine punye, martyalokam vishanti. Swarga is where all the punya you get swarga. Then kshine punye, punaha janaha, martyalokam vishanti. So that is the, so you are still in the cycle of birth and death. And therefore, some people want swarga. So are you going to get swarga? No, not even that. There are other ordinary people. Ihas loke ye tatra kirtim vanchanti, te janaha santi. Are you going in that path at least? At least are you wanting fame, name and fame? That is also, you are not even doing that. You are not being ordinary, you are not being a little bit virtuous, and you are not being an atmajnani also. In all these three levels, you are not acting. And finally, this kashmalam is not going to lead to any purushartha. Therefore, O Arjuna, come out of this vishada. Evam tatra padatrayasya anaryajushtam asvargyam akirtikaram iti padatrayasya upayogaha ativa samaranjasa ritya kutamasti. Evam tatra dvitiya shlokam asmabhi drishtamasti. Ekavaram dvitiya shlokam uktva tritiya shlokam pati gachhamaha. Shri Bhagavanuvacha kutastva kashmalamidam vishame samupasthitam anaryajushtam asvargyam akirtikaram arjuna. Idanim tritiya shlokam vadami, sarve anuvadantu. Klaibhyam asmagamaha. पार्थ नैतत्वयुपपद्यते क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठपरन्तप. एवमस्ति पदच्छेदं पश्यन्तु. कर्तृकर्मक्रियान्वेषणं कुर्वन्तु. You can self-read the shloka once, see the padacheda, kartru karma kriya. That is one of the kriya padams. Okay. Another. Okay, one more. And a third one is also there. Exactly. Mas madama. Perfect, perfect. Tatra vakya trayam kartum shakyate atra. Klaibhyam masmadamaha tvayi etat na upapadyate apicha dohirya durbalyam tektva uttishtha iti evam vakya trayam kartum shakyate. Samichinam. Ok, so we are in slide 16, shloka number 3, second chapter of the 72 shlokas, index reference. Padachedaha pashyamaha klaibhyam masma. We can take gamaha or agamaha will be a better padachyeda actually. Agamaha, masma, agamaha, he partha, na, etate, tvayi, upapadyate, shudram, hridaya daurbalyam, chaktva, uttishtha, he parantapa. Okay. These are the padachyedamasti. Anvayam, anvayam pashyamaha, vakya trayam kartum shakyate, he partha, prathamam tavat, klaibhyam, masma gamaha. ದ್ವಿತೀಯ ವಾಕ್ಯಂ ಏತತ್ ಕ್ಲೈಬ್ಯಂ ಯದಸ್ತಿ ತ್ವಯಿ ನ ಉಪಪದ್ಯತೆ ತತ್ ವಾಕ್ಯತ್ವಯಂ अपि च वाक्यत्रयम् हे परन्तप क्षुद्रम् हृदयदौर्बल्यम् त्यक्त्वा त्वम् उत्तिष्ठ तावदेव प्लीज गेट अप त्वम् उत्तिष्ठ प्लीज गेट अप इज व्हाट ही इज टेलिंग पश्यामः तत्र पदपदार्थं पश्यामः हे पार्थ हे अर्जुन क्लैब्यम् एतत् क्लीबत्वं नपुंसकत्वं यदस्ति तत्र मध्यत्वम् इत्युक्ते किम् तत्र धर्ममपि नास्ति अधर्ममपि नास्ति युद्धमपि नास्ति अयुद्धमपि नास्ति मध्ये यत् क्लीबत्वं यदस्ति तत् मास्मगमः त्वं मा प्राप्नुहि त्वं मा स्वीकुरु त्वं मा अगमः त्वं मा स्वीकुरु इति प्रथमं तावत् यत् क्लीबत्वं यदस्ति यत् विषादेन दुःखेन यत् क्लीबत्वं यत् कातरत्वं दट् इस् इफ् वि सी दट् the running away from the battlefield yadasti tat kleebatvam tat purushatvam nasti tatra tat kleebatvam asti tat tvam ma agamah tvam ma prapnuhi tadrusha margam ma svikuru iti sah krishnah arjunam prati vadati anantaram kimartham ma svikartavyam na svikartavyam maya iti prishte sati tvayi etat na upapadyate tvayi त्वयि इन् यू हे अर्जुन त्वयि एतत् क्लीबत्वं यदस्ति भवान् तावत् पुरुषोत्तमः पुरुषश्रेष्ठः नरशार्दूलः भवान् तत्र युद्धे भवान् तत्र सिंह इव भवान् वर्तते तादृश अर्जुनस्य अग्रे अपि सः परन्तप इति पदस्य उपयोगं करोति सः तादृश परन्तपे एतत् क्लीबत्वं न उपपद्यते तत् न युज्यते तत् न सम्यक् भवति इट् इस् नाट् बिफिटिङ्ग् फार् अ पर्सन् लैक् यु टु बी टु बी इन् दिस् स्टेट् आफ् अन्मेन्लिनेस् त्वयि एतत् न उपपद्यते अपि च हे परन्तप हे शत्रुपीडक हे शत्रु मारक हे अर्जुन क्षुद्रं हृदयदौर्बल्यं यदस्ति एतत् तुच्छम् अतीव नीचावस्था यदस्ति तादृश हृदयदौर्बल्यं चित्तवैक्लव्यं यदस्ति तत्र क्लीबत्वं यदस्ति तत् त्यक्त्वा इदानीमेव सद्यः झटिति तत् त्यक्त्वा विसृज्य उत्तिष्ठ युद्धं कुरु युद्धार्थं सन्नद्धो भव एवं तत्र रथे अधः मा उपविश इति सः वदति पदपदार्थम् आङ्ग्लार्थं पश्यामश्चेत् हे पार्थ ओ सन् आफ् पृथा पृथाः पृथायाः इदं वा पृथायाः अपत्यं पुमान् बोथ् द फार्म्स् वी हव् सीन् पृथायाः इदं पार्थः पृथायाः अपत्यं पुमान् पार्थ इति अस्माभिः दृष्टमस्ति यु विल् सी इट् इन् इन् द अग्र व्याकरणभाग क्लैब्यम् अन्मेन्लिनेस् विच् इस् नाट् बिफिटिङ्ग् फार् अ क्षत्रिय अन्मेन्लिनेस् मास्मगमः डु नाट् टेक् दट् पात् तादृश क्लैब्यं मास्मगमः मा प्राप्नुहि एतत् त्वयि इन् यू इन् यू ओ अर्जुन एतत् दिस् अन्मेन्लिनेस् न उपपद्यते इट् इस् नाट् बिफिटिङ्ग् फार् यू हे परन्तप ओ स्कार्चर् आफ् एनिमीस् दिस् इदं दिस् वेरि वेरि तुच्छं वेरि वेरि मीन् अण्ड् वेरि आफ् अ लो नेचर् दिस् कैण्ड् आफ् हृदयदौर्बल्यं फेण्ट् हार्टेड्नेस् त्यक्त्वा रिमूविङ्ग् इट् कम्प्लीट्लि उन्मूलयित्वा उन्मूल्य हेविङ्ग् रिमूव्ड् इट् फुल्लि उन्मूल्य उत्तिष्ठ स्टाण्ड् अप् अण्ड् अरैस् अण्ड् फैट् युवर् एनिमीस् अण्ड् establish dharma. That is what he is telling. Pada parichayam pashyamaha. Partha sambodhanam prathama ekavachanam. Klaibhyam dvitiya bhakti ekavachanam. Masmagmaha. Ma sma agamaha. Ma and sma both are avyayas. We have seen that ma is an avyayas. Ma again a dipata. Agamaha. This form agamaha. If we see गमलृ धातु अल्ली गमलृ गतौ धातोः तत्र लुङ्लकार फार्म्स् इफ् वि सी इट् विल् कम् एस् परस्मैपदी लुङ्लकार फार्म्स् विल् कम् एस् अगमत् अगमताम् अगमन् अगमः अगमतम् अगमत अगमम् अगमाव अगमाव इन् दट् वी हाव् द फार्म् एस् अगमः देन् हौ डिड् इट् बिकम् गमः नमाङ्ग् योगे इस् द सूत्र विच् वर्क्स् हियर् तत्र माङ्ग् इति माङ्ग् उपयोगत्वेन अगमः इति पदस्य अकारस्य आदि अकारस्य लोपः भवति नमाङ्ग्योगे इति सूत्रानुसारेण सो वेन् म अव्यय इस् बीङ्ग् यूस्ड् द अ इन् लुङ्लकार फार्म् मध्यमपुरुष फार्म् विच् द अकार बिकम्स् लोप एवं मास्मगमः मास्म अगमः बिकम्स मास्मगमः एवं मा अव्यया स्मा अव्यया अगमः नुम्लकार परस्मैपदी मध्यमपुरुष एकवचनम् अगमः त्वयि सप्तमी एकवचनम् युष्मच्छब्दस्य दकारान्तत्रिलिङ्गकः सप्तमी एकवचनम् त्वयि एतत् नपुंसकलिङ्ग सर्वनामशब्द प्रथमपुरुष एकवचनम् न अव्ययम् उपपद्यते अगेन इफ् यू सी उपपद्यते पदगतौ इस् द धातु उप उपसर्ग उप इस् द प्रिफिक्स् पद गतौ अगेन् गतौ आल् वर्ड्स् आर् यूस्ड् इन् द वर्ड् इन् द सेन्स् आफ् गतौ ओन्ली अगेन् उपपद्यते इस् अ वेरि वेरि सिम्पल् लट्लकार आत्मनेपदी फार्म् पद्यते पद्यते पद्यन्ते पद्यसे पद्यते पद्यद्वे पद्ये पद्यावहे पद्यामहे एवम् उपपद्यते लट् प्रथमपुरुष एकवचनम् आत्मनेपदि कर्तरि फार्म् एण्ड् फालिङ्ग् अण्डर् भादिगणामि गतौ एनिवेस् बोत् आर् बोत् गमः गमलृगतौ अण्ड् पदगतौ बोत् आर् इन् भादिगण इट्सेल्फ् अगेन् पश्यामश्चेत् परन्तप हे परन्तप सम्बोधन प्रथम एकवचनम् क्षुद्रम् हृदय दौर्बल्यम् कनेक्टेड् वर्ड्स् नपुंसकलिङ्ग द्वितीयाविभक्ति एकवचनम् त्यक्त्वा त्यक्त्वा अगेन् त्वान्ताव्ययम् कृदन्ताफाम् विल् सी दट् देयर् उत्तिष्ठ उत्तिष्ठ उद् उपसर्गपूर्वक ष्ठागतिनिवृत्तौ अगेन् ष्ठागतिनिवृत्तौ द स्था धातु विच् एवर् वि यूस् ष्ठागतिनिवृत्तौ भ्वादिगण परस्मैपदि लोट्लकारस्य उपयोगः कृतमस्ति अत्र लोट्लकारः अगेन् वि केन् सी दट् हि इस् नाट् यूस्ड् विधिलिङ्ग् तत्र हि इस् नाट् यूस्ड् आज्ञार्थक दो लोट् आल्सो इस् आज्ञार्थक टेक्निकलि ग्रामेटिकलि इफ् यु सी बोत् लोट् अण्ड् विधिलिङ्ग् केन् बि यूस्ड् इण्टर्चेञ्जबलि हौ वर् इन् अ कलोकियल् सेन्स् वेन् वि आर् सम्भाषण मार्गे पश्यामश्चेत् लोट् इस् जनरलि अ साफ्ट्वेर् वर्षन् अण्ड् विधिलिङ्ग् गिव्स् अ वेरि नो आप्शन् कैण्ड् आफ् अ केस् देर् फोर् उत्तिष्ठ इति वदति सः नोत्तिष्ठति अनन्तरं गीतोपदेशः भवति एवम् उत्तिष्ठ देर् फोर् उत्तिष्ठ उत् उपसर्ग तिष्ठतु तिष्ठतां तिष्ठतां तिष्ठन्तु तिष्ठ तिष्ठतां तिष्ठतं तिष्ठत लोट् मध्यमपुरुष एकवचनं द्वादिगणः परस्मैपदि फार्म् उत्तिष्ठ पश्यामः अर्थं लेट् अस् गो टु स्लैड् नम्बर् 18 हे पार्थ ईदृशं क्लैव्यं नपुंसकत्वं मास्मगमः मा प्राप्नुहि त्वयि वीरस्य तव एतत् न उपपद्यते न युज्यते एतत् भवतः श्रेयसि न भवति हे परन्तप हे शत्रुपीडक शत्रुमारक एतादृशं तुच्छं क्षुद्रं हृदयदौर्बल्यं चित्तवैक्लव्यं यदस्ति तत् त्यक्त्वा इदानीमेव सम्पूर्णतया तत् त्यक्त्वा विसृज्य उत्तिष्ठ युद्धार्थं सन्नद्धो भव सन्धिं पश्यामः न एतत् नैतत् ऐ औ वृद्धिरादेच् वृद्धिरेचि वृद्धिसन्धिः वि हाव् द फार्म् ऐ हियर् त्वयि उपपद्यते अगेन् त्वयि उपपद्यते त्वयि इस् दर् इ ऊरुल्र इको यणचि इ ऊरुल्र स्थाने यकारस्य आदेशः भवति उपपद्यते यण्सन्धिः त्वयि उपपद्यते इन् प्लेस् आफ् इ अण्ड् उ वि गेट् या त्यक्त्वा उत्तिष्ठ आ प्लस् उ ओ गुणसन्धि आद्गुणः गुणसन्धिः समासभागे पश्यामश्चेत् हृदयदौर्बल्यं हृदयस्य दौर्बल्यं हृदयदौर्बल्यं द दौर्बल्यत्वा वीक्नेस् आफ् द हार्ट् एवम् आफ् द हार्ट् अस्ति षष्टिभक्ति षष्टि तत्पुरुष त्यक्त्वा त्यज् धातोः त्वा प्रत्यादेशः त्यक्त्वा तद्धितान्तभागे पश्यामश्चेत् क्लीबस्य भावः शेञ्ज् प्रत्ययः क्लीबस्य भावः क्लैब्यं दुर्बलस्य भावः दौर्बल्यम् एवं भावार्थकतद्धित्ता वि सी दट् द यूसेज् आफ् शैङ् प्रत्यय भावार्थकतद्धित्ता क्लीबस्य भावः क्लैब्यं दुर्बलस्य भावः दौर्बल्यम् quickly we will also see the vishesha tippani slide number 19 partha again there are two good interesting bhashas given for this word partha prithayaha apatyam puman we know that partha kunti is none other than krishna's father sister evam it is more of a relation they are more of as an elderly brother so there is a personal touch whenever krishna uses the word partha more as a well wisher as a elder brother as a personally he has used this word partha whenever arjuna is very very dejected and krishna wants to show that extra affection and well wishingness he has used this word partha so this is one of the most used words for calling arjuna it is used 38 times only next to the word kaunteya which is used 24 times in shrimad bhagavad gita to address arjuna therefore we see that this is a very very important word partha And also, at this point of time, why Partha is used is not because of love or affection, but because when Krishna went to do the Sandhi Karya, at that time, Kunti writes a letter to the Pandavas, specifically to writing to Arjuna, saying that, and the message in that letter what she wrote was, this is the time when every mother of a warrior actually gives birth to her sons. So, Yuddharte, when Dharma Paripalanam has to come and you have to fight and kill the enemies, this is when the mothers always feel proud. Therefore, O Pandavas, go and fight the Kauravas and remove them, kill them fully, is the message which Kunti tells to write the letters and give to Arjuna. And through this, he is trying to remind Arjuna of that letter and what is his kartavya. Again, Parantapa. Parantapa means one who scorches the enemies, who tortures the enemies and kills them in a very, very, very aggressive way. Therefore, that kind of Parantapa, where did you get that title, O Parantapa? If you are going to get sitting here dejectedly, it will become Akirtikaram and your word, both Arjuna and Parantapa, will be of no use. Again, the word Kshudram has been used. Kshudram yadi pashyamastete tuchyam. So, this Hridaya Dorbalyam will make you tuchyam. And also, this is a tuchya feeling. It is a temporary feeling. So, it is very easy to remove this. Therefore, quit this. Which is why he is being used to this Kshudram. And again, these slokas, if we see, the linkage goes to sloka number 31 to 38. There we can see the linkage. Therefore, from here, we will try to stop and take it to the next class. So, we will see by the next class. We may not have we will intimate about the next class. We will try to sort out these technical issues. We will send you the message about the next class. Tadrusha Paryantam Sarvebhyah Dhanyavadaha. Apologies for all the inconveniences and thanks for attending. Yatra Yogeshwara Krishno Yatra Partho Dhanurdharaha Tatra Shri Vijayo Bhutir Dhrivanitir Matir Mama Gurureva Gatir Gurumeva Bhaje Gurunaiva Sahasminamo Gurave Nagurov Paramam Shishurasmi Gurur Matirasti Gurau Mamapahi Guru Sarvebhyah Ram Ram Ram. Thank you.